नमस्सर्वेभ्यः अद्य परमलघुमञ्जूषायां चतुर्थः पाठः मार्च् मासस्य अष्टमः दिनाङ्कः अद्य वयं शक्तिलक्षणं पठामः आदौ मङ्गलं येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते। लघुमञ्जूषायाः प्रथमं प्रकरणं शक्तिनिरूपणम् इति। तत्र आदौ मङ्गलं कृत्वा नागेशभट्टः उपोद्घातरूपेण स्फोटप्रभेदान् कथयति। स्फोटस्य लक्षणं तन्निरूपणञ्च अग्रे अन्यस्मिन् प्रकरणे करिष्यते। अत्र तु प्रस्तावनामात्रेण स्फोटप्रभेदाः उक्ताः। स्फुटत्यर्थः अस्मात् इति निष्पत्त्या वाचकः अर्थवाचकः यः शब्दः सः स्फोटशब्देन उच्यते। स च अष्टविधः भवितुमर्हति। वर्णस्फोटः वर्णजातिस्फोटः पदस्फोटः पदजातिस्फोटः वाक्यस्फोटः वाक्यजातिस्फोटः इति षट् प्रभेदाः। अखण्डपदस्फोटः अखण्डवाक्यस्फोटश्चेति आहत्य अष्टस्फोटाः सन्ति। अर्थात् यत्र अखण्डं वाक्यं वाचकत्वेन स्वीक्रियते सः अखण्डवाक्यस्फोटः। यत्र तु प्रकृतिः प्रत्ययः वाचकत्वेन स्वीक्रियते सः वर्णस्फोटः इत्यादि। एतेषु अष्टसु अखण्डवाक्यस्फोटः मुख्यः इत्युक्ते तस्यैव वास्तविकत्वं वस्तुतः तत्त्वतः स एव स्फोटः। अन्वाख्यानार्थं शास्त्रप्रक्रियानिर्वाहार्थं वा वाक्ये पदानि कल्प्यन्ते। पदे प्रकृतिप्रत्ययादिविभागश्च कल्प्यते। तेषाम् अर्थः अन्वयव्यतिरेकेण उच्यते किन्तु सः सर्वोऽपि कल्पित एव इति सिद्धान्तः अस्माभिः दृष्टः। एवञ्च शब्दः वाचकः स्फोटाख्यः इति ज्ञातम्। तत्र वर्णस्फोटः शास्त्रप्रक्रियानिर्वाहकः। शास्त्रे प्रकृतिप्रत्ययविभागम् उक्त्वा तदर्थाः अपि उच्यन्ते। प्रकृतिप्रत्ययाः तत्तदर्थवाचकाः इति। तत्र स्थानिनाम् आदेशानां प्रक्रियायां ये अन्तर्भवन्ति तेषां सर्वेषामपि काल्पनिकं वाचकत्वम् अस्ति। मुख्यं वाचकत्वं वाक्यस्यैव इति दृष्टम्। एवञ्च वाचकः शब्दः स्फोटाख्यः ज्ञातः। तस्य किं प्रयोजनं शब्दस्य इति चेत् ज्ञाने प्रमाणत्वम् अस्ति शब्दस्य। प्रत्यक्ष अनुमान उपमानशब्दाः प्रमाणानि इति न्यायशास्त्रे उच्यते। तत्र शब्दः प्रमाणम्। प्रमाकरणं प्रमा नाम निश्चितज्ञानं। तत्र प्रमाणं भवति शब्दः अपि। यत्र इन्द्रियसन्निकर्षेण ज्ञानं जन्यते तत् प्रत्यक्षप्रमाणम् इत्युच्यते। इन्द्रियसन्निकर्षः एव प्रत्यक्षप्रमाणम्। अनुमितिजन्यं ज्ञानम् अथवा व्याप्तिज्ञानजन्यं ज्ञानम् अनुमानम्। तत्र व्याप्तिज्ञानम् अथवा अनुमानं प्रमाणम् अनुमितिः तद्ज्ञानम्। एवम् उपमानं नाम सादृश्यज्ञानं तदपि प्रमाणं। तज्जन्यं ज्ञानम् उपमितिः इत्युच्यते। शब्दः प्रमाणं शब्दजन्यं ज्ञानं शब्दबोधः इत्येवं प्रमाणानि स्वीक्रियन्ते। तत्र प्रमाणम् इत्युक्ते प्रमां जनयति तत् प्रमाणम्। प्रमा नाम निश्चितं ज्ञानम्। शब्दः सर्वविधोऽपि शब्दः ज्ञानं जनयितुं समर्थः किन्तु प्रमाणत्वेन कीदृशशब्दः स्वीक्रियते इति चेत् आप्तवाक्यरूपशब्दः प्रमाणम् इति नैयायिकाः साधयन्ति। तद्विषये अत्र आधिक्येन नोच्यते। आप्तः यथार्थवक्ता निश्चयज्ञानवान् यथार्थवक्ता। अनुभवेन यः कार्त्स्न्येन निश्चयज्ञानं प्राप्तवान् अस्ति किञ्च रागादिवशादपि अन्यथा न कथयति सः आप्तः तद्वाक्यमेव प्रमाणत्वेन स्वीक्रियते इति सिद्धान्तः तद्यथा वा भवतु शब्दात् ज्ञानस्य जननं कथं भवति स एव शाब्दबोधः शब्दः प्रमाणं तज्जन्यं ज्ञानं शाब्दबोधः कथं भवति शाब्दबोधः इति वयम् अधीतवन्तः तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः शाब्दबोधं प्रति वृत्तिविशिष्टज्ञानं हेतुः वृत्तिविशिष्टज्ञानेन शाब्दबुद्धिः भवति उभयत्र तद्धर्मावच्छिन्नत्वं विशेषणं विद्यते अतः यः धर्मः तत्र अवच्छेदकत्वेन विवक्षितः तद्धर्मावच्छिन्नत्वं बोधे अपि भवति वृत्तौ अपि भवति वृत्तिज्ञाने अपि भवति उभयत्र अस्ति यथा घटत्वावच्छिन्नः घटः इति यत्र वृत्तिज्ञानमस्ति तत्र घटविषयक घटत्वावच्छिन्नघटविषयकशाब्दबुद्धिः जायते इति प्रक्रिया तत्र वृत्तिः नाम परपदार्थसम्बन्धः ज्ञाने वृत्तिविशिष्टं ज्ञानम् इत्युक्तं तत्र सम्बद्धद्वयं प्रतिपादितं नागेशेन एकं तु उद्बुद्धसंस्कारः वृत्तिविषये यः उद्बुद्धः संस्कारः सोऽपि आवश्यकः किञ्च स्व आश्रयपदविषयकत्वं वृत्त्याश्रयः यः शब्दः अथवा यत् पदं तस्यापि ज्ञानं यदा भवति तदा तदेव वृत्तिविशिष्टज्ञानम् इत्युच्यते तेन शाब्दबोधः भवति युक्तम् तदिदानीम् अग्रे पठामः सा च वृत्तिस्त्रिधा वृत्तिः नाम पदपदार्थयोः सम्बन्धः इति या कथ्यते सा त्रिधा भवति शक्तिः लक्षणा व्यञ्जना च एवं तिस्रः वृत्तयः सन्ति तासां तिसृणामपि विवरणं पृथक् पृथक् प्रकरणे क्रियते नागेशभट्टेन तत्र शक्तिः कः पदार्थः इति चेत् का शक्तिः अत्र तार्किकाः तार्किकमते शक्तिः नाम का इति आदौ निरूप्य तत् खण्डयित्वा वैयाकरणमते का शक्तिः इति प्रतिपादयति नागेशभट्टः अत्र तार्किकाः तार्किकैः किम् उच्यते सो अस्माकं शास्त्रग्रन्थेषु इयं शैली पूर्वपक्षः सिद्धान्तः आदौ पूर्वपक्षस्य अनुवादः क्रियते सो यु डोण्ट् डिरेक्ट्लि reject any view. First, you have to state what is the view. Then, you have to give reasons as to why that view is not correct. And then, you finally state your siddhanta. That is the style in all our Shastra Granthas. Okay? You cannot simply say that the Tarkikas are wrong. First, you have to faithfully represent what the Tarkikas say. Purva Pakshasya Pratipadanam Kartavyam. So, and then you get set out to reject it. अतः अत्र आदौ तार्किकाः किं वदन्ति इति सम्यक् अवगन्तव्यं तदैव तन्मतं युक्तं वा न वा इति अग्रे चिन्तयितुं शक्यते अतः इदानीं यदुच्यते तत्सर्वं नैयायिकमतानुगुणम् सो यु केनाट् टेक् दिस् स्टेट्मेण्ट् दट् इस् ऐ मीन् द काण्टेक्स्ट् इस् वेरि इम्पार्टेण्ट् यु केनाट् टेक् दिस् वेन् हि सेज़् अत्र तार्किकाः इत्युक्त्वा यदुच्यते यु केनाट् टेक् दट् स्टेट्मेण्ट् औट् आफ् काण्टेक्स्ट् एण्ड् से दिस् इस् वाट् नागेशभट्ट सेस् This is not Nagesha's opinion, not the Vaiyakarana Siddhanta. He is just phrasing, paraphrasing the Tarkika Siddhanta. Tarkikanam mate shaktihi katham varanyate iti tena uchyate. Atra Tarkikaha. Asmat shabdat ayamartho bodhavyaha ityakara. Idam padam imam artham bodhayatu ityakarava. Ishvarecha shaktihi laghavat iti varanti. तन्मते ईश्वरेच्छा शक्तिः शक्ति इस् द डिजैर् आफ् ईश्वर इच्छायाः किं रूपम् अस्मात् शब्दान् अयम् अर्थः बोद्धव्यः घटः इति एकः शब्दः तस्मात् कः अर्थः कपालद्वयसंयोग संयोगोत्पन्नः कश्चित् पदार्थः सः बोद्धव्यः इति ईश्वरस्य इच्छा अथवा इदं पदम् इमम् अर्थं बोधयतु समानम् ऐ मीन् बोथ् आफ् देम् आर् द सेम् इट् इस् जस्ट् सेम् सो इदं पदं घटः घट इति पदम् इमम् अर्थं बोधयतु इत्याकारा वा ईश्वरेच्छाशक्तिः लाघवात् किं लाघवम् यदि सामान्यतः लोकानां ज्ञानं स्वीक्रियते तर्हि व्यक्तीनाम् आनन्त्यात् तत्र लौकिकेच्छायाः बाहुल्येन ईश्वरेच्छायाः एव शक्तित्वकल्पने लाघवम् इति तदेव लाघवम् अतः लाघवात् ईश्वरेच्छा एव शक्तिम् ईश्वरेच्छायाः एव शक्तित्वम् इति तार्किकाः शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः स च कीदृशः सम्बन्धः अस्मात् शब्दात् अयमर्थो बोद्धव्यः इति ईश्वरेच्छारूपः अस्मात् शब्दात् अयमर्थो बोद्धव्यः इत्याकारा इदं पदम् इमम् अर्थं बोधयतु इत्याकारा वा ईश्वरेच्छाशक्तिः लाघवात् सैव सङ्केतः सा शक्तिः एव सङ्केतः सम्बन्धः सो अकार्डिङ्ग् टु तार्किकास् शक्ति सङ्केत सम्बन्ध आर् द सेम् सो शक्ति इस् आफ् द फार्म् आफ् ईश्वरेच्छा दट् a particular word will convey a particular meaning okay so that shakti itself is referred to as sanketa and it is a sambandha between the pada and padartha iti tarkikanam matam shakteh yadyapi vishayatva lakshanah sambandhah pade arthe bodhecha now I am shaktih iti padarthah asti ishvarechha kah vishayah ichchayah padam घट इति पदम् इच्छाविषयः पदार्थः कपालद्वयसंयुक्तः यः पदार्थः सोऽपि इच्छाविषयः बोधः शाब्दबोधः अस्मात् शब्दाद् अयम् अर्थः बोद्धव्यः इति बोधः अपि शक्तिविषयः ओके सो आल् दीस् त्री आर् कवर्ड् बै शक्ति अस्मात् शब्दात् अयम् अर्थः बोद्धव्यः सो द शब्द अर्थ अण्ड् बोध all these form the vishaya for shakti shakteh vishayatva lakshanah sambandhah pade arthe bodhecha tathapi then how do you differentiate what is vachaka and what is vachya ityatra vadati bodha nishtha janyata nirupita janakatavatvena shakti vishayah vachakah सो वाचकः शब्दः तस्य किं लक्षणम् बोधनिष्ठजन्यतानिरूपितजनकतावत्त्वेन शक्तिविषयः शक्तिविषयः वाचकः कीदृशः शक्तिविषयः बोधः शाब्दबोधः यः अस्ति तस्मिन् बोधे या जन्यता सो बोध इस् जनरेटेड् इट् इस् जन्य सो जन्यतानिरूपितजनकता कथं जायते सः बोधः जनकं किम् इति चेत् शब्दः सो इट् इस् द पद विच् जेनरेट्स् द बोध सो दट् विच् इस् द विषय आफ् शक्ति इन् द फार्म् आफ् द जेनरेटर् द जनक आफ् बोध बोधनिष्ठाया जन्यता तन्निरूपिताया जनकता तद्वत्त्वेन शक्तिविषयः वाचकः नाम शब्दः पदजन्य बोधविषयत्वेन शक्तिविषयः वाच्यः पदम् एकं पदं घटपदं तज्जन्यः यः बोधः घटविषयकः तद्विषयत्वेन बोधविषयत्वेन बोधस्य कः विषयः सः पदार्थः कपालद्वय संयोगरूपः यः घटः सः एवम् एतेन सम्बन्धेन शक्तिविषयः वाच्यः नाम अर्थः इति न अतिप्रसङ्गः सो यु केन् स्टिल् इवन् दो द विषयत शक्तिविषयत्वं शक्तिविषयकत्वं पदे अपि अस्ति अर्थे अपि अस्ति बोधे अपि अस्ति सो वाट् ही सेइंग इस् द शक्ति इस् सम्बन्ध आर् संकेत which is of the form of Ishvarecha. Asmat Shabdat Ayam Arthaha Bodhavyaha Iti Ishvarecha Shaktihi. So this Shakti now has three components. One is the Pada, the other is Artha, and the other is the Bodha, Shabda Bodha. All of them are different. Word, meaning, and the understanding. Shabdaha, Arthaha, Bodhaha. Eta Trayamapi Shaktehe Vishayaha. Katham Nirnayaha, Eteshu Trishu, Kaha Vachakaha, Kaha Vachyaha, Iti Katham Nirniyate. See, always this Vachaka, Vachya is always there. Pada is Vachaka and Artha is Vachya. That which denotes something is the Vachaka, Pada. That which is denoted is Vachya. Kaha Vachakaha, Kaha Vachyaha. Etat Trayamapi Yada Shakti Vishayaha Bhavati. Tada Vachakaha, Kaha Vachyaha, Kaha Iti Prashne. Bodhanishta janyata nirupita janakata vatvena shakti vishayaha vachakaha. Shakti vishayaha vachakaha, shakti vishayaha eva vachyaha. You remember that this thing both are the same. You cannot differentiate just by saying shakti vishayaha vachakaha or shakti vishayaha vachyaha. So we need an additional qualification. So, bodhanishta janyata, bodhaha nama jnanam, shabda jnanam, shabda bodhaha. Tannishthaya janyata. So that is born. Understanding is janya. From what? What is it born from? The understanding you are getting from the word. Ataha, bodhanishtha janyata nirupita janakata. Kutra asti, pade asti. Pada is the janaka. And bodha is janya. Ataha, bodha janakaha vasakaha. That which produces the understanding. That which is shakti vishaya. And produces the understanding is vachaka. Tarhi vachyaha kaha, padajanya bodha vishayatvena. Padam asti, padena kim jayate padam janakam. Padajanyaha bodhaha, bodhasya vishayaha. What is the object of bodha? Object of understanding is the padartha. Okay. Padajanya bodha vishayatvena shakti vishayaha vachyaha iti nati prasangaha. So they are giving the definitions of how to differentiate vachaka and vachya. Bodha janakaha vachakaha, bodha vishayaha vachyaha. Iti sankshepaha. Okay, that is the thing. Yadyapi prathamam shaktigrahaha vakye eva. Etadapi nayayikaihi angikriyate. Prathamam shaktigrahaha vakye eva. Tathapi avapa udvapabhyam. Shastrakrit kalpita bhyam tattat padashakti grahaha ityahu. Atra vyakhyane pashyamaha. Prathamam shakti grahaha iti. Balanam vakyadeva arthabodhat. Prathamam shakti grahaha vakye eva. Yatha ghatam anaya iti vakyam. Tadvakyam shrutva. Kashchit ghatam anayati. Eta drishtva, vriddha vyavaharam drishtva, balaha vagachyati. Ghatam anaya iti vakyasya, ghatapadartha anayana rupa, kriya arthaha iti balaha avagachyati. Ataha prathamam shakti grahaha vakye. So initially, the child will not be able to distinguish that there are several words. Kintu tataha avapa udvapayohu. Avapaha nama padantara prakshepaha. When one of the words is substituted by a different word. Udvapaha nishkasanam. Yatha ghatam naya. Idanim naya iti padaha padasya avapaha kriyate. Anaya iti padasya udvapaha. So you take out anaya from ghata and then you put another word called naya. Ghatam naya. Ayam yavaharaha yada bhavati. Tada ghata nayana kriya tena buddhyate. So initially he understands the two as sentences. Now, as the experience keeps repeating, he understands that there is a common factor, ghata. So, that ghata indicates the pot. So, there could be different words associated with it. So, ghatam anaya, ghatam naya, ghatam kuru, ghatam pashya, ghatam bhanjaya, anything. So, he understands that those kriyas are meaning different actions. Okay. Evancha avapa udvapabhyam. Yadyapi prathamam shakti grahaha vakye eva. Tathapi avapa udvapabhyam shastrakrit kalpita abhyam. tattat padashakti grahaha ityahuhu. Yatta tarkikaha ahuhu. Tarkikaha evam vadanti. So this entire thing is the siddhanta of the tarkikas regarding shakti. Kimuktam ishvarecha asmat shabdana yamartho bodhavyaha. Athava idam padam etamartham bodhayatu ityakarava ishvarecha shaktihi. Saiva sanketa sambandha. So that is also known as sanketa and sambandha. Shaktehe vishayata sambandha. Pade bhavati, arthe bhavati, bodhecha bhavati. Ataha padam, arthaha, bodhaha. Ete trayaha api shakti vishayaha. Katham tesham paraspara nishkarshaha. Kim vachakam, kim vachyam iti katham nishkarshaha. Iti chet, bodhanishthaya janyata. Tan nirupita janakata vatvena shakti vishayaha vachakaha. Arthat bodha janakaha shakti vishayaha. Bodha janakatvena shakti vishayaha vachakaha. Bodha vishayatvena padajanyaha yaha bodhaha. Tad vishayatvena shakti vishayaha vachyaha iti nishkarshaha kriyate. Ayam shakti grahaha, understanding the shakti, vakya eva bhavati adu. Vakyad asya vakyasya ayamarthaha iti shakti grahaha vakye bhavati. Tathapi avapa udvapa abhyam shastrakrat kalpita abhyam tattat padashakti grahaha. Tataha, by replacing words with something else, tasya tasya padasya jnanam api bhavati, padashakti grahaha api bhavati, iti ahuhu. Tarkikaha ahuhu, tanna, iti tasya nirakaranam agre kriyate. So clear with the tarkika part of it. Idanim vayakaranaihi kimuchyate, iti agre drashtavyam. Tarkika says shaktam padam. Is it not correct? So their definition of pada is not suptingantam padam. Shaktam padam. Shaktam nama yasya artha bodha samarthyam asti. Arthat shaktam nama tadeva vachakam. Yasminna bodha nishtha janyata nirupita janakatavatvena shakti vishayaha yaha tadeva padam. Ataha tanmate ramam iti padadvayam. Rama iti ekam padam, am iti aparam padam. Evam prakriti pratyayanam api padatva vyavaharaha tesham shaktam padam iti tesham lakshanam. So anything which can convey a meaning is shakta. That is, yasmin shakti hi asti. Tadvatakam padam. Tasyaiva padatvam tanmate. Okay.
हरि ओम
वदतु
सुप्रभातम महोदय व्यक्त्यः स्थित्रः अभिधा लक्षण व्यंजन इति अभिधा शक्ति एकम एव भिन्नः अस्ति वा
समानम अभिधा एव शक्तिः
पर्याय पदं वा
आम् अभिधा इति वदन्ति शक्तिः इत्यपि वदन्ति समानम्
आम् 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 प्रतापरुद्रीत्यं काव्ये अभिधा इति अस्ति
अभिधा इति प्रयोगः प्रायेण आलङ्कारिकैः क्रियते
आलङ्कारिकैः
वैयाकरणैः शक्तिः इति उच्यते अर्थस्तु प्रायेण समानः
समानः धन्यवादः
अस्तु any other questions वैयाकरणमतं पश्यामः तन्न अर्थात् तार्किकैः यत् शक्तेः लक्षणम् उक्तं तत् न युक्तम् किमर्थम् इच्छायाः सम्बन्धिनोः आश्रयता नियामकत्वाभावेन सम्बन्धत्वा सम्भवात् तार्किकमते ईश्वरेच्छा शक्तिः सा एव संकेतः सम्बन्धः. शक्तिः इत्युक्ते परपदार्थयोः सम्बन्धः, ईश्वरेच्छारूपः इति उक्तम्. इच्छायाः सम्बन्धत्वाभावात् इच्छा सम्बन्धः भवितुम् नार्हति इति नागेशः प्रतिपादयति. किमर्थम्? सम्बन्धो हि सम्बन्धः नामकः, सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे सति आश्रयतया विशिष्टबुद्धिनियामकः इति अभियुक्तव्यवहारात्. सम्बन्धः नामकः, सम्बन्धिद्वयभिन्नत्वे सति सम्बन्धी द्वयं भवति. सो फार् अ सम्बन्ध देर् शुड् बि अ मिनिमम् आफ् टु सम्बन्धीस्, दोस् विच् आर् असोसियेटेड् वित् दट् सम्बन्ध. सम्बन्धिद्वयभिन्नः सम्बन्धः, सो सम्बन्ध इस् सम्थिङ्ग् विच् इस् डिफरेण्ट् फ्रम् ईदर् आफ् द सम्बन्धीस्. सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सति एण्ड् इट् इस् प्रेसेण्ट् इन् बोत्, इट् इस् डिफरेण्ट् फ्रम् बोत् एण्ड् इट् इस् प्रेसेण्ट् इन् बोत्. तथा सति आश्रयतया विशिष्टबुद्धिनियामकः, कः आधेयः, कः आधारः इति विशिष्टां बुद्धिं यः नियमयति सः एव सम्बन्धः इति सम्बन्धस्य लक्षणम्. किमुदाहरणम्? घटवद्भूतलम् इत्यस्ति, तत्र संयोगसम्बन्धः, घटस्य भूतलस्य च संयोगः सम्बन्धः. यथा घटवत् भूतलम् इत्यादौ संयोगरूपः सम्बन्धः सम्बन्धिभ्यां भिन्नः. सो अयं संयोगः घटः न, घटभिन्नः भूतलभिन्नः. द्विष्ठः, घटे अपि संयोगः अस्ति भूतले अपि संयोगः अस्ति. अतः सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे सति. किञ्च कः आधारः, कः आधेयः? घटः आधेयः, भूतलम् आधारः. घटनिरूपितसंयोगाश्रयः भूतलम्, घटनिरूपितः यः संयोगः तदाश्रयं भूतलम् इति विशिष्टबुद्धिनियामकः. सो इट् डिस्टिङ्ग्विशस् clearly between the adhara and adheya. It is different from both sambandhis and it is present in both sambandhis. Etadeva sambandha lakshanam. Ichchayam tu etan nasti. Sambandhinoho ashrayata niyamakatva bhavena. So ashrayataya ubhayo ubhayatra ashrayata asti. Arthat sanyoga ashrayaha ghataha tathaiva bhutalam. तथा सति नियामकः यः भवति स एव सम्बन्धः. एतत्तु इच्छायां नास्ति. किमर्थम्? न अत्र तथा. घटशब्दः इच्छावान्, तदर्थो वा इच्छावान् इति व्यवहारः. यथा घटः घटे संयोगः अस्ति तथा भूतले संयोगः अस्ति इति द्विष्ठत्वम्, उभयत्र आश्रयतासम्बन्धः अस्ति संयोगरूपस्य सम्बन्धः. अत्र यदि इच्छा एव सम्बन्धः, इच्छा घटशब्दे अस्ति वा? नास्ति. इच्छा घटपदार्थे अस्ति वा? नास्ति. इच्छा तु ईश्वरे अस्ति. ईश्वरेच्छाशक्तिः इत्युच्यते, इच्छा ईश्वरे अस्ति. घटे अपि नास्ति, घटपदार्थे घटशब्दे अपि नास्ति, तदर्थे वा नास्ति. अतः सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सति आश्रयतया विशिष्टबुद्धिनियामकः. उभयत्र भवेत् द्विष्ठत्वम् आश्रयतासम्बन्धेन उभयत्र यः अस्ति विशिष्टबुद्धिं नियामयति स एव सम्बन्धः. अत्र तु घटशब्दः इच्छावान्, यथा उपरि घटः संयोगवान्, संयोगः घटे अस्ति इति उच्यते व्यवहारः, एवं संयोगः भूतले अस्ति इति. अत्र तु इच्छा घटशब्दे अस्ति इत्यपि वक्तुं न शक्यते, घटपदार्थे अस्ति इत्यपि न शक्यते. अतः इच्छा इत्येषः पदार्थः सम्बन्धः एव न. तथा सति तस्य शक्तित्वं कथम्? शक्तिः नाम सम्बन्धः, पदपदार्थसम्बन्धः कथं सम्भवति इति प्रश्नः. तन्न इच्छायाः सम्बन्धिनोः आश्रयतानियामकत्वाभावेन सम्बन्धत्व असम्भवात्. सो इच्छा केन् नाट् बि अ सम्बन्ध. सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सति आश्रयतया विशिष्टबुद्धिनियामकः इति अभियुक्तव्यवहारात्. यथा घटवद् भूतलम् इत्यादौ संयोगरूपः सम्बन्धः सम्बन्धिभ्याम् भिन्नः द्विष्ठः घटनिरूपित संयोगाश्रयः भूतलम् इति विशिष्टबुद्धिनियामकः. सो दिस् विशिष्टबुद्धि इस् थ्रू द संयोग. संयोगस्य आश्रयः भूतलम्. घटे अपि अस्ति, भूतले अपि अस्ति. घटनिरूपितः यः संयोगः तदाश्रयः भूतलम् इति आश्रयतया विशिष्टबुद्धिनियामकत्वम् संयोगे अस्ति. अतः संयोगः सम्बन्धः. नात्र तथा, अत्र तु नास्ति. घटशब्दः इच्छावान् तदर्थो वा इच्छावान् इति व्यवहारः न इति अन्वयः. अतः इच्छायाः सम्बन्धत्वम् नास्ति. अतः इच्छा एव शक्तिः इति वचनम् न युक्तम्. तर्हि शक्तिः नाम का? सो वाट् इस् शक्ति अकार्डिङ्ग् टु वैयाकरणास्? तस्मात् पदपदार्थयोः सम्बन्धान्तरमेव शक्तिः. वाच्यवाचकभावा परपर्याया तद्ग्राहकञ्च इतरेतर अध्यासमूलकम् तादात्म्यम् तदेव सम्बन्धः. उभयनिरूपित तादात्म्यवान् उभयः इति अर्थपदयोः व्यवहारात्. सो दिस् इस् अवर् डेफिनेशन्, वेरि वेरि इम्पार्टेण्ट् अकार्डिङ्ग् टु द वैयाकरण. वाट् इस् अवर् डेफिनेशन् आफ् शक्ति? पदपदार्थयोः सम्बन्धान्तरमेव शक्तिः. सो शक्तिः इत्येषा पदपदार्थयोः सम्बन्धान्तरम्. इट् इस् अ कैण्ड् आफ् सम्बन्ध बिट्वीन् पद एण्ड् पदार्थ. वाच्यवाचकभावा परपर्याय, आल्सो नोन् एस् एण्डक् सम्बन्ध इस् वाच्यवाचकभावः. सो दिस् इस् अ सम्बन्ध. अयं वाच्यवाचकभावः सम्बन्धिभ्यां भिन्नः. पदम् अपि न, अर्थः अपि न. पदादर्थाच्च भिन्नः, द्विष्ठः. पदे अपि वाच्यवाचकभावरूपसम्बन्धः अस्ति, अर्थे अपि अस्ति. अनन्तरम् पदनिरूपितः यः वाच्यवाचकभावः और् अर्थनिरूपितः यः वाच्यवाचकभावः तदाश्रयः पदम् इति विशिष्टबुद्धिनियामकः. सो इट् इस् अ स्पेशल् कैण्ड् आफ् सम्बन्ध विच् इस् आल्सो नोन् एस् वाच्यवाचकभाव. तद्ग्राहकं च, एण्ड् अवर् सिद्धान्त इस् यू केन् नाट् वट् इट् इस् दट् वर्ड् you cannot experience shakti directly. Okay, it is not perceptible. Okay, it is not available for direct perception. Katham nyayate tad grahakam cha shakti grahakam kim itaretara adhyasa moolakam tadatmyam. Tadatmyam eva shakti grahakam tadeva sambandhah ityuchyate. So we will see below the vyakhyana. इतरेतर अध्यासः मूलकम् नाम ज्ञापकम् यस्य. सो इतरेतर अध्यासः, अध्यासः इस् ज्ञान. इतरेतर अध्यासः एकस्मिन् अपरस्य ज्ञानम्. सो यु हाव् शब्द, इन् दट् यु सी द अर्थ. यु हाव् अर्थ, इन् दट् यु सी द शब्द. दट् इस् इतरेतर अध्यास विच् लीड्स् टु तादात्म्य. सो यथा गुणगुणिनोः इति उच्यते. So, there was just a moment, there was a place where they defined, atra asti, adhyasaha, anyasmin anyadharma avabhasaha. So, what is adhyasa? Anyasmin anyadharmasya avabhasaha. So, knowing the dharma of one in the other. So, in a pada, we see the dharma of padartha, arthe padasya dharmaha. तन्मूलकं तादात्म्यम्. ड्यू टु दिस् अध्यास देर् इस् तादात्म्य, दट् इस् इण्टर्चेञ्जबल् पर्सेप्शन् आफ् शब्द एण्ड् अर्थ. वि पर्सीव् बोत् शब्द एण्ड् अर्थ एज़् वन्. तादात्म्यम् अस्ति, न तु वास्तवम्. वास्तविकतया शब्दः भिन्नः, अर्थः भिन्नः. किन्तु इतरेतर अध्यासस्य कारणेन शब्दार्थयोः परस्परं तादात्म्यं दृश्यते. तदुक्तं पातञ्जलभाष्ये, संकेतस्तु पदपदार्थयोः इतरेतर अध्यासरूपः. दिस् वि विल् सी अगेन् इन् द मूला आल्सो. तेनापि उच्यते योयम् शब्दः सोऽर्थः योऽर्थस्य शब्दः. दिस् विल् बिकम् क्लियर् अगेन् इन् द मूल इट्सेल्फ. इट् क्लारिफैस् वेन् वि से घट, घटः पदम्, घटः अर्थः, उभयमपि तत्रैव अस्ति. सो वेन् वि से घट, वि अण्डर्स्टाण्ड् इट् बोत् एस् शब्द एण्ड् अर्थ. दट् इस् वै हि गिव्स् एक्साम्पल्स् लेटर्. हि से सम्थिङ्ग् लैक् श्लोकः उक्तः, अर्थं वदति. So he says a shloka and now he will tell the meaning. How can meaning be told? Uchcharana vishayatvam to arthasya na bhavati. Tathapi arthaha uchyate iti asmabhihi uchyate. Right? We always make use of arthaha uchyate. Can an artha be told? No, it is only the shabda. We will just be using other shabdas to indicate the meaning. Kintu arthaha uchyate iti उच्चारण रूपः धर्मः, सः कस्य धर्मः? शब्दस्य धर्मः. किन्तु अर्थे भासते तदेव अन्यस्मिन् अन्यधर्मावभासः. शब्दधर्मः उच्चारणविषयता इति शब्दस्य धर्मः, किन्तु अर्थे अपि अर्थः उच्यते इति व्यवहारः अस्ति. अतः शब्दधर्मस्य अवभासः अर्थे अस्ति. एवं परस्परधर्मस्य यः अध्यासः तेन शब्दार्थयोः तादात्म्यम् अस्माभिः ज्ञायते. तत् तादात्म्यमेव सम्बन्धः. ओके, सो वैयाकरण सेपरेट् शक्ति, संकेत एण्ड् सम्बन्ध. ओके, दे आर् त्री सेपरेट् थिङ्ग्स्. तार्किकमते ईश्वरेच्छा शक्तिः, सैव सङ्केतः सम्बन्धः इत्युक्तं. तत् न, शक्तिः भिन्ना, सङ्केतः भिन्नः, सम्बन्धः भिन्नः इति. I mean, Shakti is also a kind of sambandha. There are two kinds of sambandhas here. That is what the Vaiyakaranas say. We will go back to the original. Tasmat padapadarthayohu sambandhantarameva shaktihi vachyavachaka bhava parapariyaya tadgrahakancha itaretara adhyasa moolakam tadatmyam. So this itaretara adhyasa is sanketa. When we say घट शब्दः, घटशब्दस्य अयमर्थः अथवा अस्य अर्थस्य वाचकः घटशब्दः इति, स एव अध्यासः. सो वेन् वि आर् ईक्वेटिङ्ग् शब्द एण्ड् अर्थ, दट् इस् अध्यास. तन्मूलकं तादात्म्यं सम्बन्धः. सो बिकास् आफ् दट् देर् इस् अ तादात्म्य सम्बन्ध बिट्वीन् पद एण्ड् अर्थ. ओके, तदेव सम्बन्धः. उभयनिरूपित तादात्म्यवान् उभयः, अर्थात् पदनिरूपित तादात्म्यवान् अर्थः, अर्थनिरूपित तादात्म्यवान् शब्दः इति अर्थपदयोः व्यवहारात्. अर्थनिरूपितं तादात्म्यं शब्दे अस्ति, शब्दनिरूपितं तादात्म्यम् अर्थे अस्ति. रिमेम्बर् देर् आर् टू वर्ड्स् वि यूस्. वन् इस् काल्ड् अभेद एण्ड् अदर् इस् काल्ड् तादात्म्य. ओके, बोत् आफ् देम् आर् यूस् इन् अ सेन्स् आफ् ऐडेण्टिकल्. बट् अभेद मीन्स् इट् इस् आक्चुलि ऐडेण्टिकल्. But tadatmya means it is actually different, but we perceive it as being identical. Okay? Yatha guna guninoho. There is neelaha ghataha. So neela is a guna and the dravya, it is present in the dravya. Okay? But when we say neelaha, there is tadatmya between guna and dravya. The dravya is blue. So there is a difference between guna and dravya. But still, we perceive it as one. Similarly, shabda arthayoho tadatmyam. They are actually different. They are not abhinna. Abhedaha na. Bhedaha asti. Kintu tadatmyena grahanam bhavati. Okay? Tadatmyam asti. So, they are perceived as identical. Though they are actually different, they are perceived as identical. Wait a moment. If you are still... it seems confusing, the Moola makes it very clear. Towards the end, things become much clearer. So we will go through this and then again we will come back, so things will be clearer. So we are defining three things. One is Shakti, Itaretara Adhyasa and Tadatmya. Shakti is the Sambandha between Parapadartha, also known as Vachyavachaka Bhava. How do we know that there is Shakti? By Itaretara Adhyasa, which is Sanketa. Again, defined later. And then, there is something called Tadatmya, which is the Sambandha. So, So this sambandha, tadatmya, is different from shakti. Shakterapi karya janakatve sambandhasya iva niyamakatvat. So shakti hai karya janakatve, karyam nama bodhaha. So shakti produces shabda bodha. Kintu tatra anyaha sambandhaha nama tadatmya sambandhaha apekshyate. Kimudaharanam, dīpādigata prakāśakatva shaktāvapi, āloka viṣaya sambandhe satyeva vastu prakāśakatvam nānyathā iti drishtatvāt. So he gives a drishtānta, dīpādigata prakāśakatva shaktau, prakāśakatva shaktihi, the capacity to illuminate. Prakāśakatva shaktihi kutra asti, dīpe asti. Kinto, karyam nama vastu prakāśakatvam kadā bhavati, aloka viṣaya sambandhe. Only when there is a sambandha between the eye and the object of being seen. Okay. Aloka viṣaya sambandhe satyeva vastu prakāśakatvam na anyatha. So even though the shakti is always present in the dīpa, the karya, which is vastu prakashakatva, the actual karya of the shakti will occur only in the presence of another sambandha. Similarly, shakti is present in the pada and artha, but it requires another sambandha to produce shabda bodha. That sambandha is tadatmya. Yatha aloka vishaya sambandhe sati, dīpagata prakashakatva shaktya, vastu prakashak rupam karyam siddhyati tatha tadatmya sambandhe sati. So because of the presence of the tadatmya sambandha between shabda and artha, padartha gata shaktya, so the shakti present in pada and artha will generate shabda bodha. Okay, so shakti is inherently present in pada and artha, but you cannot directly perceive shakti. Okay, so shakti is indicated by sanketa. That sanketa is asmat shabda rayamartha bodhavyaha, also called as itaretara adhyasa. So itaretara adhyasa moolakam, there is a sambandha between pada padartha called tadatmya, okay, because of which there is shabda bodha. Taduktam harina, upakarasya yatrasti dharmastatranugamyate shaktinamapyasau shaktihi gunanamapyasau gunaha. Idanim yaduktam, shakti as separate from tadatmya. This concept is not present in Tarkikas, so that is why he is expressing it. Taduktam harina, harina nama bhartriharina ityarthaha, vakyapadiye uchyate, upakaraha saha yatrasti dharmaha tatra anugamyate shaktinamapi asau shaktihi gunanamapi asau gunaha. Kaha arthaha? Upakaraha nama upakarya upakarakayoho bodha shaktiyoho upakara svabhavaha. Upakarya is bodha, that which is generated is bodha. Upakaraka, what generates the bodha? It is shakti. Okay, so bodha shaktiyoho, between this bodha and shakti, shakti generates bodha. Tayoho upakara svabhavaha sambandhaha. So there is a sambandha which helps shakti in generating bodha. Upakaryam bodhaha, upakarika shaktihi, tatra shaktya bodha janane, madhye upakara svabhavaha kaschit sambandhaha apekshitaha tadeva tadatmyam. Saha sambandhaha yatra asti, yatra tadatmyam asti, tatra dharmaha nama shakti rupaha karyam drishtva anumiyate. So that is what he is saying, shakti is not directly perceptible. How do you know there is shakti? We see tadatmya, which is a karya, and because of the tadatmya, we infer the presence of shakti. Because the karya, the sambandha is there, which is generating a bodha, we assume the presence of the upakaraka, which we term it as shakti. Upakarya upakaraka yoho, bodha shaktyoho upakara svabhavaha, nama sambandhaha yatra asti, tadatmyam yatra asti, तत्र धर्मः शक्तिरूपः धर्मः कार्यं दृष्ट्वा अनुमीयते. सो शक्ति इज ओन्ली इन्फर्ड, इट इज नॉट परसेप्टिबल. तादात्म्य इज प्रत्यक्ष. वी सी दट देर इज तादात्म्य बिट्वीन शब्द एंड अर्थ. देर इज ऑल्सो इतरेतर अध्यास, बट शक्ति इज नॉट डिरेक्टली नोवेबल. इट कैन ओनली बी इन्फर्ड बिकॉज ऑफ द प्रेजेंस ऑफ तादात्म्य एंड बिकॉज दिस तादात्म्य गिव्स द कार्य कॉल्ड शब्द बोध. कार्यम दृष्ट्वा संबंधम दृष्ट्वा शक्ति ही अनुमीयते. असौ संबंधः नाम तादात्म्यम् शक्तीनामपि कार्यजनने उपकारकः. यथा आलोक अथवा चक्षुर विषय संबंधः, जस्ट लाइक द संबंध बिटवीन द ऐ एंड द ऑब्जेक्ट हेल्प्स इन जनरेटिंग द कार्य ऑफ प्रकाशक शक्ति इन अ दीप. दो द प्रकाशक शक्ति इज देयर, you cannot directly know if that power or that shakti is present in a deepa. How do you know it has that power? Because you see the vastu prakasha, the karya, which is facilitated due to that sambandha. Aloka vishaya sambandhe sati vastu prakashakatva rupam karyam asmabhihi drishyate. So you can directly perceive the karya and the sambandha. Due to these, we infer the presence that deepa has the shakti, even though we don't directly see the shakti. Similarly, shabdarthayoho bodhaha jayate. I mean, arthasya bodhaha bhavati, shabda bodhaha karyam. Kada bhavati, tadatmya sambandhaha asti. Yatra shabdarthayoho tadatmyam, tatra bodhaha jayate. Evam karyam sambandhancha drishtva, shakti hi asti. Pade sa shakti hi asti iti anumiyate. असौ सम्बन्धः शक्तीनामपि कार्यजनने उपकारकः, गुणानामपि द्रव्याश्रितत्व नियामकः. सो गुणविषये अपि अयम् सम्बन्धः, गुणगुणिनोः समवायः इत्युच्यते, तद्नियामकः इति हेलाराजः. हेलाराजः वाक्यपदीयस्य व्याख्यानकर्ता. सो इदम् इयम् कारिका भर्तृहरेः. उपकारस्य यत्रास्ति धर्मस्तत्रानुगम्यते. शक्तीनामप्यसौ शक्तिः, गुणानामप्यसौ गुणः. असौ नाम उपकारः, उपकारः नाम सम्बन्धः. सम्बन्धः यत्र अस्ति तत्र धर्मः नाम शक्तिः अनुमीयते. शक्तीनामपि असौ शक्तिः नाम शक्तीनाम् कार्यजनने सः सम्बन्धः, तस्य सम्बन्धस्य एव सामर्थ्यमस्ति. एवं गुणानामप्यसौ गुणः इति भर्तृहरेः कारिका, तस्य व्याख्यानं हेलाराजेन एवं कृतम्. अतः भर्तृहरिप्रमाणमाश्रित्य, सो बेस्ड् आन् द प्रामाण्य आफ् वाक्यपदीय, अकार्डिङ्ग् टु वैयाकरण, देर् इस् शक्ति, देर् इस् अध्यास एण्ड् देर् इस् सम्बन्ध, तादात्म्यसम्बन्ध. आल् त्री आर् डिफरेण्ट्. सः सम्बन्धः क्लियर् आर् It seems confusing. Any questions? So absence of questions could mean both. Either it's all clear or it's all muddled. So there's a question. So one sambandha, that is shakti, needs another sambandha, tadatmya. Yes, shakti is the padapadartha, the shakti is the sambandha which we are inferring. So it also needs the tadatmya sambandha for generating shabda bodha. सम्बन्धः पदे वाक्ये च. सो अयम् तादात्म्यसम्बन्धः, सो इट् इस् अट् द लेवल् आफ् द वर्ड् एण्ड् आल्सो द वाक्य, द सेण्टेन्स्. तदाह न्यायभाष्यकारः, सो न्यायभाष्ये उच्यते, समयज्ञानार्थम् चेदम् पदलक्षणायाः वाचः अन्वाख्यानम् व्याकरणम्, वाक्यलक्षणायाः वाचः अर्थलक्षणम् इति. Tatra samayaha nama sanketaha. So tarkikas use all those interchangeably. So shakti, sanketa, samaya, ishvara samayaha, ishvara sanketaha, iti samanam. Samaya jnana artham cha idam. So shakti jnana artham, to understand the shakti, kim padam, kasmin arthe shaktam, ityasya jnana artham, padalakshanayaha vachaha anvakhyanam vyakaranam. Vyakaranena kim kriyate, padanam anvakhyanam kriyate. Vakyalakshanayaha vachaha arthalakshanam, arthashastram nama mimamsa. So mimamsa shastrena, vakyasya arthaha, vakye shakti grahartham mimamsa shastram, pade shakti grahartham vyakaranam iti nyayabhashena uktam. Ataha pade vakyeja asti, anena padeshu iva vakyeshu api ishvara samayaha iti spashtameva uktam. Tasmat itaretara adhyasaha sanketaha tanmulakam tadatmyancha sambandhaha iti sanghatarthaha. So in conclusion, we have sanketa and sambandha separate. Saihikimuktam ishvarecha shaktihi saiva sanketaha sambandhaha iti tanna. Itaretara adhyasaha sanketaha. What indicates shakti? Asmat shabda rayamartho bodhavyaha, athava idam padam asminarthe shaktam iti itaretara adhyasaha. When we superimpose the properties of shabda and artha, that itaretara adhyasa is sanketa. Tanmulakam tadatmyancha sambandhaha. Because of this itaretara adhyasa, we have the tadatmya sambandha. Taduktam patanjala bhashye. So now he quotes from the bhashyakara. Sanketastu padarthayoho itaretara adhyasarupaha smrityatmakaha yoyam shabdaha sorthaha yorthaha sashabdaha iti. So sanketa is itaretara adhyasarupaha. So ayam ghataha iti yaha shabdaha sayeva ghata padarthaha iti itaretara adhyasarupaha smrityatmakaha. So based on memory. Okay, so this sanketa is always based on memory. The first time you cannot have it. Yoyam shabdaha sorthaha, yorthaha sashabdaha iti. Smrityatmakaha ityanena jnatasya iva sanketasya shakti bodhakatvam darshitam. It's only when you already have a previous knowledge of sanketa, there is shabda bodha and shakti. As we were discussing the other day, the first time when you are trying to understand, it is not shabda bodha. You cannot understand directly from a word. You understand based on other kinds of jnana. Okay, tasya smritya shakti grahaha anyena vidhena bhavati. Anantaram tat samskaram ashritya shabda bodhaha jayate. Okay, so there was something in the vyakhyana here. So we'll see this. Shakti bodhakatvam iti ayam bhavaha pratyakshataha drishyamane eva ghate. So when there is a ghata padartha, a pot which is seen, koyam iti kim nama koyam iti va prashne. So there is a question. Ayam kaha ghatoyam iti upadeshena. We say ayam ghataha nama ghata shabdaha asmin arthe shaktaha iti padasya arthasya ubhayor bodhaha bhavati. Pratyakshatah drishyamane eva ghate koyam iti kim nama koyam iti va prashne. Koyam ayam kaha iti arthavishayakaha prashnaha. Kim nama kaha ayam, what is it called iti shabdavishayakaha prashnaha. Ubhayatra ghatoyam iti upadeshaha. Kimuchyate ayam ghataha nama padarthaha api ghataha shabdaha api ghataha tadeva itaretara adhyasaha. Okay. That is what he is saying is the sanketa. What is sanketa? Itaretara adhyasaha. Koyam iti arthavishayake prashne. Kim namakaha ayam iti shabdavishayake prashne. Ghatoyam iti sanketaha. That is the itaretara adhyasa. Iti upadeshena. Vriddhiradait iti ityadi upadeshena cha. Vriddhihi adait iti samanadhikaranyam. Whenever he says vriddhi is the shabda, adait is the artha. Ubhayoh samanadhikaranyena nirdeshah vriddhihi eva adaich eva vriddhihi iti ghatam ghatapada abhinnatvena. So we are expressing the ghatapadartha as abhinna from the ghatapada. Ubhayoho vastutaha bhede satyapi abhinnatvena vyavaharaha kriyate. Adai chascha vriddhi pada abhinnatvena avagachati. So there is a, I think a typing error. Vriddhi pada abhinnatvena avagachati. So there is abheda which is expressed between the pada and padartha. Tadabhinnatvancha tadatmakatvam. So such abhinnatva is what we call as tadatmya. Tadatmakatva grahecha. Tadatmakatvam nama tadatmyam. Tadatmakatva grahecha. Tatra bodhatmaka ghata dyabhivyakti shaktim grinhati. So then when there is tadatmya, he there is shakti graha. That is bodhatmaka ghata adi abhivyakti shaktim. So the word ghata expresses this padartha. Iti shakti graha bhavati. Kada pratyaksha sahakritaha eva bhavati. Okay. Ghatadau. Okay. So I think till here is enough. So this is the process of shakti graha. There is a question here which, I'm sorry. So there is the question, is the shabda and shabdartha always inseparable? Like Kalidasa says in Vagartha Viva Sampraktau, is this abhinna or tadatmya? It is tadatmya, it is not abheda. That is what I said. There is a difference between abheda and tadatmya. Okay, so abheda is actually, it is different. Actually it is not different, it is the same. Tadatmya, even though there is a difference, it is perceived as the same. Okay, that is tadatmya. Shabdarthayoho tadatmya eva. Ata eva kalidasena api ubhayor abhedaha nochyate vagartha viva sampruktau. They are so closely related that you cannot, I mean, it's very difficult to separate. They are different, but to know them differently is very difficult. That is what he means by sampraksa. So, tadatmyam eva atra natu abhedaha. It is not abheda. We will see that here also. So, kimuktam atra. Tasmad itaretara adhyasaha sanketaha. Ghatoyam iti sanketaha. Tatra itaretara adhyasaha. Ayam kaha padarthaha. Kashabdaha. Kim shabdaha iti. Kashabdaha iti. Ubhayam nyayate tatra itaretara adhyasaha. Sayeva sanketaha. Tanmulakam tadatmyam. So because of that there is tadatmya between shabda and artha. Tena shakti grahaha bhavati. Due to this tadatmya, we understand that there is a shakti. Ghatapadaha, ghatapadarthe, shaktaha. Iti shakti grahaha bhavati. Smrityatmakaha. So that leads to the samskara. So henceforth, if you hear the word ghata, there is shabda bodha. Because of this samskara and because of the padavishayakatva. So we go back to the original. Jnane vritti vaishishtyanta svavishaya udbuddha samskara samanadhikaranya svavishaya pada vishayakatvam. Svashraya pada vishayakatvam. So ubhayoho jnane padasya tatha shaktehe shakti vishayaka samskarasya sattve shabda bodhaha bhavati. Smrityatmakaha ityanena jnatasyaiva sanketasya shakti bodhakatvam darshitam. Uktaha Ishvara sanketaha eva shaktihi iti nayayikamatam nayuktam. Nayayikaihi Ishvara sanketaha shaktihi ityuchyate. Ayam etat chakyaha. Atra asya shaktihi ityasya sanketasya shaktitaha parthakyena prasiddhatvat. I mean, whenever they are saying ayam etat chakyaha, ayam padarthaha etat padashakyaha. Atra asya shaktihi. Asmin arthe asya padasya shaktihi ityasya sanketasya. This is sanketa. Okay. Atra asya shaktihi iti rupam va. Ayam etat chakyaha iti va sanketaha. Tatra shaktitaha parthakyena prasiddhatvat. You are saying if sanketa itself is shakti, atra asya shaktihi ityasya korthaha. You cannot indicate it separately from itself. Atra ayametat chakyaha atrasya shaktihi ityasya sanketasya loke darshanena tadrisha ishvara sanketasya api anumanat shakti prakashakaha. So it is denoting shakti. It is not shakti by itself. Svasyaiva prarthakyena nirdeshasya ayuktatvat. So if sanketa itself is shakti, how can you say atrasya shaktihi? Atrasya shaktihi is the sanketa. So within a sanketa you are saying shakti. Both of them mean the same. So parthakyena prasiddhatvat ishvara sanketa shaktihi iti tarkikamatam na yuktam. Okay. So atayeva nyayavachaspatye uktam svargadi bhuvam maharshi devatanam ishvarena sakshadeva krutaha sanketaha. Sanketaha nama asya padasya ayamarthaha ayameta chakyaha ityadi sanketaha maharshi devatanam ishvarena krutaha tadvyavaharacha asmadadinam api sugrahaha tat sanketaha iti vachaspatye uktam. Tena spashtam nyayate sanketa is just indicative of the shakti. It is not shakti itself. That which brings out shakti is sanketa. Ataha shakti grahakaha sanketaha natu shaktireva. Ataeva nyayavachaspatye uktam svargadi bhuvam maharshi devatanam ishvarena sakshadeva krutaha sanketaha idrisha vyavaharaha padapadarthayo sambandhasya grahakaha tadvyavaharat maharshinam devatanam va vyavaharat asmadadinam api tat sanketaha sugrahaha iti न्यायशास्त्रे एव उक्तमस्ति अतः संकेतः शक्तिपदार्थात् भिन्नः. ओके आई थिंक वी विल स्टॉप हियर एंड वी विल लुक एट दीस इन द नेक्स्ट क्लास. सो अ क्विक रीकैप ऑफ व्हाट वी डिड नाउ. वृत्तिः त्रिधा पदपदार्थ संबंधः वृत्तिः शक्तिः लक्षणा व्यञ्जना इति वृत्तित्रयम् विद्यते. तार्किक मते ईश्वरेच्छा अस्मात् पदादयमर्थः बोद्धव्यः अथवा इदं पदं अमुमर्थं बोधयतु इति रूपा वा ईश्वरेच्छा एव शक्तिः सा शक्तिः एव संकेतः स एव सम्बन्धः. सो दे डू नॉट हैव थ्री डिफरेंट थिंग्स. एवरीथिंग इज ईश्वरेच्छा. दट सेल्फ इज शक्ति एंड संकेत एंड संबंध. अतः नागेशेन किमुच्यते शक्तिः भिन्ना संकेतः भिन्नः संबंधश्च भिन्नः. दट इज अवर दिस तन् न युज्यते. किमर्थम् इच्छायाः संबंधत्व असंभवात्. संबंधो हि संबंधिद्वय भिन्नत्वे सति द्विष्ठत्वे सति आश्रयतया विशिष्ट बुद्धि नियामकः इत्युच्यते. इच्छा तु पदे अपि नास्ति अर्थे अपि नास्ति. घटा घटशब्दः इच्छावान् इति वक्तुं न शक्यते अथवा घटपदार्थः इच्छावान् इत्यपि वक्तुं न शक्यते. अतः इच्छा इति सम्बन्धः एव भवितुं नार्हति. सम्बन्धलक्षणम् उक्तम्. सम्बन्धिद्वयभिन्नत्वे सति दृष्टत्वे सति आश्रयतया विशिष्टबुद्धिनियामकः एव सम्बन्धः. यथा संयोगः घटवद्भूतलम् इत्युक्ते संयोगसम्बन्धः. भूतलाद्भिन्नः घटाद्भिन्नः किन्तु घटे अपि विद्यते. घटः संयोगवान् भूतलं संयोगवत् इति व्यवहारः दृश्यते. घटनिरूपितः यः संयोगः तदाश्रयः भूतलम् इति आश्रयतासम्बन्धेन बुद्धिनियामकत्वमपि अस्ति. अतः संयोगः सम्बन्धः. इच्छा तु सम्बन्धः भवितुं नार्हति. अतः इच्छा एव शक्तिः इति कथनं न युक्तम्. तर्हि शक्तिः नाम का वैयाकरणमते? पदपदार्थयो सम्बन्धान्तरं शक्तिः. तस्य एव वाच्यवाचकभावः इति अपि नाम विद्यते. सो हि डस् नाट् डिफैन् शक्ति बियाण्ड् दिस् बिकास् इट् इस् नाट् डिरेक्ट्लि पर्सेप्टिबल्. वि केन् ओन्ली अण्डर्स्टाण्ड् वाट् शक्ति इस् थ्रू इतरेतराध्यास एण्ड् थ्रू तादात्म्य एण्ड् नाट् डिरेक्ट्लि. सो वि जस्ट् डिफैन् इट् एस् पदपदार्थयो सम्बन्धान्तरम्. अ स्पेशल् कैण्ड् आफ् सम्बन्ध बिट्वीन् पदपदार्थ काल्ड् वाच्यवाचकभाव. So we understand that there is shakti due to the other things because shakti is not perceptible. Shakti grahakaha sanketaha. So how do we know shakti? Through a sanketa, which is itaretara adhyasa. अस्मिन् तस्य धर्मस्य तस्मिन् च अस्य धर्मस्य आरोपः एव अध्यासः. यथा उक्तं घटपदार्थे दृष्टे कोयम् इति अर्थविषयके प्रश्ने अथवा किं नामकः इति शब्दविषयके प्रश्ने अयं घटः इति उच्यते. स एव इतरेतर अध्यासः. सो दट् इस् द सङ्केत घटपदार्थस्य अत्र शक्तिः इत्यादि. शक्तिग्राहकः सङ्केतः अध्यासः स एव इतरेतर अध्यासः. तन्मूलकं तादात्म्यम् इति सम्बन्धः अपि अस्ति. सो देर् इस् शक्ति, देर् इस् सङ्केत एण्ड् देर् इस् सम्बन्ध आल् सेपरेट्. ओके, तादात्म्यम् इस् द सम्बन्ध. ड्यू टु दिस् सम्बन्ध देर् इस् द कार्य काल्ड् शब्दबोध. बिकास् शक्तेः कार्यजनकत्वे नाम बोधजनकत्वे, बोधः एव कार्यम्, अण्डर्स्टाण्डिङ्ग् इस् द कार्य, तत्र सः सम्बन्धः, तादात्म्यरूपः सम्बन्धः आवश्यकः. अस्माभिः बोधः ज्ञायते, अनुभूयते, तादात्म्यरूपः सम्बन्धः दृश्यते, अतः शक्तिः अनुमीयते. उपकारस्य यत्र अस्ति, उपकारः नाम तादात्म्यम्. धर्मस्तत्र अनुमीयते, धर्मः नाम शक्तिः तत्र अनुमीयते. Okay, so that is what we did. The next part, we will be doing it in the next class. Okay. शिवन्नत्वा हि नागेशे नानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते. So next class is on Friday, same time. Any questions? So we'll stop here. Thank you.